एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सभामुखेन सह प्रमुखाणाम् त्रयाणाम् दलानाम् शीर्षनेतृणाम् मध्ये रिक्तस्य प्रधान न्यायाधीशस्य नियुक्त्यै सांविधानिक परिषदः उपवेशेन परामृष्टुम् सहमतिर्धृता वर्तते। प्रमुख प्रतिपक्षिणः नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलिनो बालकोट स्थिते निवासे ह्य सम्पन्नायां मेलवार्तायां प्रधानमन्त्रिणः नेकपा माओवादी केन्द्रस्य अध्यक्षस्य च पुष्पकमल दाहाल प्रचण्डस्य प्रतिनिधिसभायाः सभामुखस्य देवराज घिमिरे विदस्य नेपाली कांग्रेस दलस्य सभापतेः पूर्व प्रधानमन्त्रिणश्च शेरबहादुर देवा विदस्य च मध्ये विहिते विमर्शने रिक्तस्य प्रधान न्यायाधीशस्य नियुक्तये सांविधानिक परिषदः उपवेशेन परामृष्टुम् सहमतिर्धृतेति नेकपा एमाले दलस्य संसदीय दलस्य सचेतक पदीयो महेश बर्तौला अज्ञापयत। सचेतक पदीयो बर्तौला प्रधान न्यायाधीशस्य नियुक्तये प्रक्रियाम् अग्रे वर्धयितुम् प्रधानमन्त्रिणा दाहालेन प्रस्तुते प्रस्तावे शीर्षनेतृणाम् मध्ये सहमतिर्धृतेति अवोचत। उपवेशे संसदीय समिति संघटनस्य कतिचित् महत्वपूर्णानाम् विधेयकानाम् अग्रेसारणस्य च विषययोरपि विमर्शनम् अभवदिति सचेतक पदीयो बर्तौला असूचयत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते नवीन सर्वकार संघटनस्य पश्चात् अर्थतन्त्रस्य समष्टिगत परिसूचकेषु सुधारः दृष्टो वर्तते। उद्योग वाणिज्य प्रवर्धन संवाद परिषदः ह्य उपविष्टम् उपवेशम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः सम्प्रत्यपि समाभयपूर्णा परिस्थितिः प्रतिक्रियमाणा सत्यपि समष्टिगतेषु आर्थिक परिसूचकेषु सुधार सम्भूतो स्थिति अवोचत। उपवेशे अर्थमन्त्री डाक्टर प्रकाश शरण महत सर्वकार नैजक्षेत्रस्य सहकारेण अग्रे वर्धितुम् अपेक्षते इति ब्रुवन् नैजक्षेत्रस्य विषयगत विधाव्य नवीनार्थिक वर्षस्य नीति कार्यक्रमाणाम् आयव्ययकस्य च कृते एकीकृत परामर्शान् दातुम् व्यवसायिन अन्वरुणत। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति संसदीय समित्या प्रदत्तान् परामर्शान् क्रियान्वेतुम् सर्वकारः प्रतिबद्धो वर्तते। राष्ट्रिय सभायाः गतदिवसीयोपवेशे राष्ट्रिय सम्बद्धता समन्वय समितेः वार्षिक प्रतिवेदनस्य गत विक्रम वर्षीयम् अनुगमन मूल्यांकन प्रतिवेदनम् आधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन्ति सर्वकारस्य प्रवक्ता च मन्त्री शर्मा अगदत् संसदीय समित्या प्रदत्तानि निर्देशनानि क्रियान्वीय अग्रे वध्यते। प्रतिवेदन विषयके विमर्शने सहभागिनः सांसदाः संसदीय समित्या प्रदत्तानि निर्देशनानि प्रभावकारी रूपेण क्रियान्वेतुम् बलम् प्रादुः। राष्ट्रिय सभायाः अपरोपवेशः अद्य दिवा सार्धद्विवादने वसति। शिक्षा विज्ञान प्रविधि मन्त्रालयेन एतत् विक्रम वर्षीयाय शैक्षिक सत्राय अस्यैव वैशाख मासस्य अभ्यन्तरे विद्यालय स्तरस्य प्रवेशावेदन पत्र पूरणस्य कार्यस्य सम्पादनत्वेन अभियानम् सञ्चालयितुम् स्थानीय स्तराः विद्यालयाश्च आहूताः सन्ति। समय एव प्रवेशावेदन पत्र पूरणम् समय एव ज्ञानम् गुणस्तरीय शिक्षा समेषाम् अभियानम् इति समाघोषेण सह वर्तमान शैक्षिक सत्राय विद्यार्थिनाम् प्रवेशावेदन पत्र पूरणस्य कार्यक्रमम् सञ्चालयितुम् मन्त्रालयस्य अन्तर्गतेन शिक्षा मानव स्रोतो विकास केन्द्रेण पत्राचारः विहितोऽस्ति। कोरोना विषाणोः संक्रमणेन ह्य एको जनः अम्रियत। स्वास्थ्य जनसंख्या मन्त्रालयस्य सहप्रवक्तुः डाक्टर समीर अधिकारिणः अनुसारेण एको जनः मृतः चतुरुत्तर शतम् नवीन संक्रान्ताः जनाः वर्धिताः सन्ति। ह्य पीसीआर एन्टीजेन प्रविधिना समग्रतः सहस्रे द्वात्रिंशदुत्तर षट्शते च निदर्शनेषु परीक्षितेषु सत्सु चतुरुत्तर शते जनेषु संक्रमणम् पुष्टिभूतम् वर्तते। काष्ठमण्डपो उपत्यका सहितेषु देशस्य प्रायः भूभागेषु वर्धमानं वायु प्रदूषणम् अतिरिक्तं दिनद्वयं तिष्ठतीति जलवातावरण पूर्वानुमानमाशाखया ज्ञापितं वर्तते। देशस्य कतिचित् भूभागेषु दीर्घकालाद् वृष्टिः न सम्भूता बहुषु स्थानेषु दावानलाश्च प्रसृताश्चेत्यतः वायु प्रदूषणम् उच्चैः वर्तते इति महाशाखया ज्ञापितं वर्तते। वातावरण विभागस्य प्रवक्ता शंकर प्रसाद पौडेल दावानलात निश्रितेन धूमेन सह वृष्टेः अभावस्य वायोः न्यूनगतेश्च कारणेन प्रदूषणं भूतल निकटे एकीभूतमिति उदैरयत्। प्रवक्ता पौडेल भूपग्रहेण दृष्टे सति काष्ठमण्डपोपत्यका शैत्येभ्यः बारापर्सा चितवन जनपदेभ्यः निःसृतस्य धूमस्य कारणेन प्रदूषणस्य वर्धनं दृष्टमिति अवोचत्। प्रदूषणात् आत्मानं रक्षितुं सावधानताम् अवलम्बितुं वायु प्रदूषणस्य वर्धनात् यथाशक्ति गृहाद् बहिः न निष्क्रान्तुं निष्क्रमणीये एव सति अनिवार्यतः मुखावरणिकाम् उपनेत्रञ्च प्रयोक्तुं च विभागेन अनुरुद्धमस्ति। नेपाल पञ्चाङ्ग निर्णायक विकास समित्या परश्वो वैशाखस्य सप्तमे दिवसे घटिष्यमाणं सूर्यग्रहणं नेपालात् न द्रक्ष्यते इत्यतः एतस्य दोषो न भविष्यतीति ज्ञापितं वर्तते। वैशाख कृष्णामावास्यायाः दिने वैशाखस्य सप्तमे दिवसे घटिष्यमाणं सूर्यग्रहणं नेपालात् न द्रक्ष्यते इति हेतो एतस्य दोषो नेपालस्थेभ्यो जनेभ्यो न भविष्यति ग्रहणाशौचं च नाचरितव्यमिति समितेः अध्यक्ष प्राध्यापकः कृष्ण अधिकारी अज्ञापयत। एतस्मिन् वर्षे वैशाखस्य सप्तमे आश्विनस्य सप्तविंशे चैत्रस्य षड्विंशे च दिवसेषु घटिष्यमाणं सूर्यग्रहणं नेपालात् न द्रक्ष्यते इत्यतः ग्रहणत्रयस्यैव आशोचं नाचरितव्यमिति असौ अवोचत। परश्व वैशाखस्य सप्तमे दिवसे घटिष्यमाणं सूर्यग्रहणं चीन मंगोलिया प्रभृति देशेभ्यो द्रक्ष्यते इति समितेः कार्यकारी निर्देशकः सूर्यप्रसाद ढुंगेलः अब्रवीत। उपप्रधान गृहमन्त्रिणा नारायण काजी श्रेष्ठेन सह संयुक्त राष्ट्रसंघस्य प्रतिनिधयः इहो मेलवार्ताम् अकुर्वन्। गृहमन्त्रालये बीते तस्मिन् मेलने उपप्रधानमन्त्री श्रेष्ठ नेपालः अतिन्यून विकसित राष्ट्राणां सूचितः षड्विंशत्यधिक द्विसहस्रतमे ख्रीष्टवर्षे विकासशील राष्ट्राणां सूच्यां स्तरोन्नतेः प्रक्रियायाम् अस्तीति अज्ञापयत। एतत्सम्बन्धे संयुक्त राष्ट्रसंघेन वीतयोः समन्वय सहकार्ययोः कृते धन्यवादं प्रददत् मन्त्री श्रेष्ठ स्थिर विकासाय विशेषं ध्यानं प्रदातव्यम् इत्यत्र बलं प्रादात। मेलने राष्ट्रसंघीय प्रतिनिधिमण्डलात् संरचनात्मक रूपान्तरणम् आवश्यकं भवतीत्यतः नेपालेन कृष्यां नवीकरणीयोर्जसः निर्याते विविधीकरणे स्थिर पर्यटने व्यापारस्य सहजीकरणे स्थिर निवेशने च बलं देयम् एवं विपदः व्यवस्थापनाय अन्तर्गतस्य निकायेभ्यः उचितं मार्गनिर्देशनं च कर्तव्यमिति बलं प्रदत्तम् आसीत्। सीमाप्रासादस्य राष्ट्रपतेः कार्यालयस्य प्रधानमन्त्रिणः आवासक्षेत्रस्य च अवकरस्य उत्थापनस्य याचनया सर्वोच्च न्यायालये आदेशावियाचन निवेदनं पञ्जीकारितं वर्तते। काष्ठमण्डप महानगरपालिकायाः प्रमुखं बालेन्द्र साहं प्रधानमन्त्रिणं मन्त्रिपरिषदः कार्यालयञ्च विपक्षिणो कृत्वा ह्य अधिवक्त्रा पद्मबहादुर श्रेष्ठेन पञ्जीकारिते आदेशावियाचन निवेदने याचनेयं विहितास्ति। काष्ठमण्डप महानगरपालिकया अवकरं न उत्थापयितुं विहितस्य निर्णयस्य पश्चात् अवकरे दीर्घकालम् एकीभूते रोगस्य दुर्गन्धस्य च प्रसरणं भवतीति हेतोः तत्कालम् अवकरम् उत्थापयितुम् अन्तरिमादेशस्य याचना आदेशावियाचन निवेदने विहितास्ति। दाङ जनपदे इहो मोटरसाइकल याने आरूढौ दौजनौ ट्रक यानस्य प्रहारात् अम्रियताम्। तुलसीपुर घोराई मार्ग खण्डस्य अन्तर्गते घोराई उपमहानगरपालिकायाः दशमवडा क्षेत्र स्थिते खैरा चतुष्पते घोराई स्थानतः तुलसीपुराय प्रस्थीयमानेन ट्रक यानेन मोटरसाइकल यानं प्रहृतम् आसीत्। दुर्घटनायां आहतयोर्मध्ये एको घटनास्थले एव अपरश्च घोराई स्थिते राप्ती विज्ञान प्रतिष्ठाने मृतौ इति प्रहरी ज्ञापयति।